नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मीर्नमोऽस्तु ते। नमस्ते गरुडारूढे डोलासुरभयङ्करी सर्वपापहरे देवी महालक्ष्मीर्नमोऽस्तु ते। सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करी सर्वदुःखहरे देवी महालक्ष्मीर्नमोऽस्तु ते। सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवी महालक्ष्मीर्नमोऽस्तु ते। आद्यन्तरहिते देवी आदिशक्तिमहेश्वरी योगज्ञे योगसम्भूते महालक्ष्मीर्नमोऽस्तु ते। स्थूलसूक्ष्मे महारौद्रे महाशक्तिमहोदरे महापापहरे देवी महालक्ष्मीर्नमोऽस्तु ते। पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी परमेशि जगन्मातः महालक्ष्मीर्नमोऽस्तु ते। श्वेताम्बरधरे देवी नानालङ्कारभूषिते जगत्स्थिते जगन्मातः महालक्ष्मीर्नमोऽस्तु ते। महालक्ष्म्यष्टकं स्तोत्रम् यः पठेत् भक्तिमान् नरः सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा। एककाले पठेन्नित्यम् महापापविनाशनम्। द्विकालं यः पठेन्नित्यम् धनधान्यसमन्वितः। त्रिकालं यः पठेन्नित्यम् महाशत्रुविनाशनम्। महालक्ष्मीर्भवेन्नित्यम् प्रसन्ना वरदा शुभा। इति इन्द्रकृत महालक्ष्मी अष्टकम्।